इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। हरियाणा प्रशासनेन आरक्षि खनन कारागार विभागेषु कतिपय पदेभ्यः नियुक्तिकाले अग्निवीरेभ्यः 10% आरक्षणं प्रदातुं निर्णीतम्। ह्यः चण्डीगढे मुख्यमन्त्री नायब सिंह सैनी एतद् घोषितवान्। एतदतिरिच्य श्री सैनी वृत्तिकाले अग्निवीरेभ्यः प्रदीयमानानाम् अनेकविधानां ऋण व्यापार स्वास्थ्य सम्बन्ध सुविधानाम् अपि घोषणां कृतवान्। स्वास्थ्य परिवार कल्याण मंत्री जगत प्रकाश नड्डा उक्तवान् यत् भारतस्य विश्वस्तरीयौषधालयानां प्रतिष्ठानुरूपम् एव विश्वस्तरीयौषध नियामक प्रागरूपम् अपि निर्मातव्यम्। तेन उक्तं यत् उत्पादानां गुणवत्तां सुनिश्चेतुं औषध चिकित्सोपकरणोद्योगयोः पारस्परिक विमर्शः निरन्तरं भवेत्। श्री नड्डा ह्यः औषधानां सौन्दर्य प्रसाधनानां चिकित्सोपकरणानां च विनियमनम् उद्दिश्य एकं समीक्षोपवेशनम् आकारितवान्। सः अवदत् यत् वैश्विकस्तरे औषधानाम् उत्पादक निर्यातक रूपेण भारतम् अग्रणीत्वं भजते। प्रधानमन्त्रिणा नरेन्द्रमोदिना एकेन सामाजिक संचार माध्यमेन प्रतिपादितं यत् मेक इन इण्डिया इत्यनया परियोजनया वैश्विक पटले भारतीयार्थव्यवस्थायाः वृद्धिः द्रष्टुं शक्यते। सः सामाजिक संचार पटले एतस्य वृद्धेः किञ्चित् प्रमाणम् अपि दत्तवान्। तेन लिखितं यत् इदानीं भारतीय द्विचक्रिकायाः अभ्यर्थना अखिले विश्वे भवति। ब्रिटेन जर्मनी नीदरलैंड देशेषु निर्यात क्षेत्रे अपि वृद्धि अभवत्। एतेन अन्ताराष्ट्रियापणेषु भारतस्य वर्धमान प्रभावस्य पुष्टि भवति। प्रधानमन्त्रिणा लिखितं यत् साम्प्रतं बिहारराज्ये निर्मितानां पादत्राणानां प्रयोग रूस देशस्य सैन्यबले क्रियते। प्रधानमन्त्री उक्तवान् यत् क्रिकेट विश्वचषक प्रतिस्पर्धाया आसन्ने कश्मीरे निर्मितानां क्रिकेट काष्ठवल्लीनां याचनायाम् अपि तीव्रवृद्धि अभवत्। सर्वकारेण संसदः वित्त संकल्पना सत्रात् पूर्वं रविवासरे सर्वदलीयम् उपवेशनम् आहूतम्। उपवेशनस्य अवधौ प्रशासनं संसदः सदनद्वयस्य सुचारुतया कार्याचरणाय सर्वेभ्यः राजनीतिकदलेभ्यः सहयोगाय अनुरोधं करिष्यति। वित्त संकल्पना सत्रम् अस्य मासस्य 22 दिनांकात् अगस्त मासस्य 12 दिनांकं यावत् चलिष्यति। केन्द्रीयम् आय व्यय पत्रक सत्रम् जुलाई मासस्य 23 दिनांके प्रस्तोष्यते। इदं हि नरेन्द्र मोदिनः नेतृत्वयुतस्य प्रशासनस्य तृतीय कार्यकालस्य प्रथमं वित्त संकल्प पत्रम् भविष्यति। महाराष्ट्रे गढ़चिरौली छत्तीसगढ़ सीमायां ईटापल्ली प्रखण्डे गतसायं गढ़चिरौली रक्षिबलस्य C-60 कमाण्डो प्रभागस्य एकस्मिन् अभियाने 12 नक्सलवादिनः मारिताः। ईटापल्ली प्रखण्डे वण्डोली ग्रामस्य वने नक्सलरोध्यभियानावधौ संजाते संघर्षे रक्षिबलेन नक्सलवादिनः व्यापादिताः। घटनास्थलात् विस्फोटकादीनि प्राप्तानि। संघर्षे रक्षणौ अपि व्रणितौ तौ चिकित्सार्थं नागपुरं नीतौ। विदेशमन्त्रिणा डॉ सुब्रह्मण्यम जयशंकरेण ह्यः मॉरिशस देशस्य पूर्व प्रधानमन्त्रिणा नवीन राम गुलाम इत्यनेन अथ च पॉल बेरेंजर इत्यमुना सह च मेलनं कृतम्। डॉ राम गुलामेन सह मेलनावसरे डॉ जयशंकरेण स्थायि द्विपक्षीय सहयोग संवर्धनाय प्रतिबद्धता प्रकटिता। ऋतु विज्ञान विभागेन कर्णाटकस्य दक्षिणभागे सौराष्ट्रे कच्छ क्षेत्रे कोंकणे गोवायाम् अथ च तटीय कर्णाटके पृथक् पृथक् स्थानेषु अद्य यावत् प्रबल वृष्टेः अनुमानः प्रकटितः अस्ति। अन्ते क्रीडावार्तासु पेरिसे ओलम्पिक क्रीडासु भारतस्य 17% क्रीडकाः सहभागं करिष्यन्ति। खेलमन्त्रालयेन एतदतिरिच्य कर्मकरदलस्य 40+100 सदस्येभ्यः अपि तत्र गमनाय स्वीकृतिः प्रदत्ता। इति वार्ताः।